नमस्सर्वेभ्यः। अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे अव्ययीभावसमासे चतुर्थः पाठः, अर्थान्तरेषु अव्ययीभावसमासः कथं भवति इति अद्य अनुवर्तयामः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। उपि पठति वा शुभा भगिनि?
नमस्ते। अव्ययीभावः अव्ययीभावः अधिकारः अयं प्राक् तत्पुरुषात् अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय सम्प्रति
शब्दप्राप्ति
असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व्य अनुपूर्व्य यौगपद्य सादृश्य संपत्ति साकल्य अन्तवचनेषु विभक्ति अर्थादिषु वर्तमानम् अव्ययम् सुभन्तेन सह नित्यं समस्यते सः अव्ययी भावः प्रायेण विग्रहः नित्यसमासः प्रायेण अश्वपदविग्रहः वा विभक्तौ हरि ई अधि इति स्थिते।
बालसुब्रह्मण्य महोदय पठति वा? अन्म्यूट् करणीयम्। यु टु क्लिक् आन् द मैक्रोफोन् टु अन्म्यूट् योर्सेल्फ।
प्रथमानि पृष्ठं समास उपसर्जनम्। समास शास्त्रे प्रथमानि दृष्ट
निर्दिष्टम्
उपसर्ग
उपसर्जन
संयम उपसर्जन संयम स्यात् उपसर्जन्यं पूर्वं समासे उपसर्जनं प्राक्प्रयोग्यम् प्रयोज्यम् इत्यदेह प्राक् प्रयोगः सुपो लुक् एकदेश विकृत्य
विकृतस्य अनन्यत्वात्
प्रातिपदिक संज्ञायाम् स्वादुत्पत्तिः अव्ययीभावश्च इति व्ययत्वात् उपोलुक् अधिहरि।
मातङ्गि।
अव्ययीभावश्च अयं नपुंसकं स्यात् नाव्ययीभावात् ततो अं त्वपञ्चम्याः अदन्तात् अव्ययीभावात् सुपः नलुक् तस्य पञ्चमीं विना अमादेशश्च स्यात् गाः पातीति गोपाः तस्मिन् इति अधिगोपम् तृतीया सप्तम्योर्बहुलम्।
अदन्तात् अव्ययी भावात् तृतीया सप्तम्योर्बहुलम् अम् भावः स्यात् अधिगोपम् अधिगोपेन अधिगोपे वा कृष्णस्य समीपम् उपकृष्णम् मद्राणाम् समृद्धिः सुमद्रम् यवनानाम् विरुद्धिर् दुर्यवनम् मक्षिकाणाम् अभावो निर्मक्षिकम् हिमस्य अत्ययो अतिहिमम् निद्रा सम्प्रति न युज्यत इति अतिनिद्रम् हरिशब्दस्य प्रकाश इति हरि विष्णोः पश्चात् अनुविष्णु योग्यता वीप्सा पदार्थानतिवृत्ति सादृश्यानि यथार्थाः रूपस्य योग्यम् अनुरूपम् अर्थमर्थम् प्रति प्रत्यर्थम् शक्तिम् अनतिक्रम्य यथाशक्ति.
सम्यक्. शुभा भगिनी.
अव्ययी भावे च अकाले सहस्य सह स्यात् अव्ययी भावे न तु काले हरेः सादृश्यं स हरि ज्येष्ठस्य आनुपूर्वेण इति अनुज्येष्ठं चक्रेण युगपत् स चक्रं सदृशः सख्या स सखि क्षत्राणां सम्पत्तिः स क्षत्रं तृणम् अपि
अपरित्यज्य
अग्निग्रन्थपर्यन्तम् अधीते साग्नि.
सम्यक्. एवम् अव्ययम् विभक्तिसमीप इत्यत्र भिन्नेषु अर्थेषु अव्ययीभावः कथम् भवति इति दृश्यमानमस्ति. न समापितवन्तः. कृष्णस्य समीपम् उपकृष्णम्. समीपम् निकटम् इत्यर्थे उप इति अव्ययम् कृष्णस्य इति सुबन्तेन सह समस्यते. कृष्ण ङस् उप इति अलौकिकविग्रहः. उपकृष्णम् इति समासः. मद्राणां समृद्धिः. समृद्धिः इत्यस्य वृद्धेः आधिक्यम् इत्यर्थः. तत्र सु इति अव्ययम् समृद्ध्यर्थकं. मद्राणाम् इति सुबन्तेन समस्यते. मद्र आम् सु इति अलौकिकविग्रहः. यवनानां विरुद्धिः दुर्यवनम्. विरुद्धिः वृद्धेः अभावः. तत्र तस्मिन्नर्थे दुर् इति अव्ययम्. यवन आम् दुर् इति अलौकिकविग्रहः. मक्षिकाणाम् अभावः निर्मक्षिकम्. अभावः पदार्थस्य असत्ता. मक्षिका आम् निर् इति अलौकिकविग्रहः. हिमस्य अत्ययः. अत्ययः नाशः इत्यर्थः. हिम ङस् अति इति विग्रहः. निद्रा सम्प्रति न युज्यते. असम्प्रति. असम्प्रति इत्यस्य अयोग्यः कालः इत्यर्थः. तस्मिन्नर्थे निद्रा ङस् अति इति अलौकिकविग्रहे अतिनिद्रम् इति समासः. अतिनिद्रा इति भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इति ह्रस्वः. नाव्ययीभाव रतो अंशपञ्चम्याः इति अमादेशः. अतिनिद्रम्. हरिशब्दस्य प्रकाशः. शब्दप्रादुर्भावः. शब्दस्य प्रकाशः. पुनः पुनः सः शब्दः श्रूयते इत्यर्थः. हरि ङस् इति अलौकिकविग्रहः. विष्णोः पश्चात् अनन्तरम्. विष्णु ङस् अनु. अनुविष्णु. यथा इत्यस्ति. यथा इति अव्ययस्य चत्वारः अर्थाः भवन्ति. योग्यता वीप्सा पदार्थानतिवृत्ति सादृश्यानि. एतेषु सर्वेषु अर्थेषु विद्यमानम् अव्ययम् योग्यता अथवा अर्हता इत्यर्थे अनु इति अव्ययम् समस्यते. रूप ङस् अनु. दीप्सा इत्यस्य पौनःपुन्यम् इत्यर्थः. तत्र प्रति इति अव्ययम्. अर्थ अम् प्रति इति अलौकिकविग्रहः. सामान्यतः अत्र अलौकिकविग्रहे षष्ठी विभक्तिः भवति. विशिष्टेषु यथा अत्र कर्मप्रवचनीयत्वात् द्वितीया विभक्तिः भवति. सः शब्दः अस्ति चेत् तृतीया विभक्तिः भवति. अन्यत्र सामान्यतः षष्ठी विभक्तिः. पदार्थ अनतिवृत्तिः. अनतिक्रमः. शक्तिम् अनतिक्रम्य यथाशक्ति. शक्ति ngas yatha ityeva alaukika vigraha. Atra laukika vigraham ashritya alaukika vigraha na lekhaniyaha. Yadyapi laukika vigrahe shaktim anatikramya ityasti. Tathapi alaukika vigraha shakti ngas yatha ityeva. Yatha shakti su avyayadap supaha iti supaha luki yatha shakti. Sadrishyam Hareha Sadrishyam Sahari Atra Hari Ta Saha Iti Saha Shabdena Saha Samasaha Avyayi Bhave Chakale Ityanena Saha Ityasya Sa Adeshaha Bhavati Anupurvyam Anukramaha Jyeshthasya Anupurvyena Iti Anujyeshtham Jyeshtha Ngas Anu Iti Bhavati Yogapadyam Ekakalata Ityarthaha Chakrena Yugapat Sa Chakram Atrapi Saha Shabdena Samasaha Tatra Sahasya Sa Adeshe Sa Chakram Iti Bhavati Punaha Sadrishyam Ityasti Yathartha Sadrishyam Tena Sadrishyasya Pramukhe Sati Avyayi Bhavaha Bhavati Atratu Gaune Sadrishye Gaunam Ityukte Sadrishyam Vihaya Sadrishasya Sadrishya Yuktam Dravyam Tasya Pradhanyam Bhavati Sadrishyasya Pradhanye Pradyumne Harehe Sadrishyam Drishyate Sahari Dari Drishyate Iti Prayogaha Sadrishya Yuktasya Pradhanye Pradyumnaha Sahari Harina Sadrishaha Ityarthaha Ubhayathapi Avyayi Bhavaha Bhavati एतावत् अधीतम् तत्र अव्ययी भाव समासस्य पञ्च उदाहरणानि सविग्रहं लिखत इति पृष्टमासीत् प्रयत्नः कृतः अद्यतन पाठानन्तरं पुनः प्रयत्नं कुर्वन्तु पश्यामः इच्छाम् अतिक्रम्य सर्वैः लिखितं यथेच्छम् इति भवति इच्छा नस् यथा यथा इच्छा ह्रस्वोनपुंसके प्रातिपदिकस्य इति ह्रस्वः नव्यीभावात् अतोऽंशपञ्चम्याः इति अमादेशः यथेच्छम् प्रतिवृक्षं सिञ्चति इत्यत्र वीप्सार्थे अव्ययीभावः नदीभिश्च इति तु इतोऽपि न अधीतम् अग्रे गच्छामः इतोऽपि अर्थत्रयं शिष्यते अस्मिन् सूत्रे सम्पत्ति साकल्य अन्तवचनेषु इत्यस्ति Sampattihi ityasya anurupaha atmabhavaha ityarthaha dhiyate. Ithavayam kshatram brahmanyam iti vadamaha. Gunaha. Tesham svabhava siddhaha yaha gunaha. Tasya sampattihi iti vyavaharaha atra asmin prasange. Samanyataha sampattihi ityasya. Wealth ityarthaha dhanam adhyata ityarthaha asti kintu atra anurupaha atmabhavaha ityuchyate kshatranam sampattihi sakshatram so sakshatram ityasya kshatriyanam anurupa gunaha ye bhavanti te ityarthaha bhavati sakshatra shabdena sakalyam Sakalasya bhavaha sakalyam. Sakalyam asheshata. Entirely, completely ityarthaha bhavati. Trinam api aparityajya. Satrinam atti. Atti khadati. Katham khadati. Satrinam khadati. Trina ta saha. Saha iti avyayena samasaha. Avyayi bhave chakale iti. Sadeshaha satrinam khadati ityukte kim sakalyena khadati ityeva arthaha vastutaha trinam khadati ityarthaha na satrinam atti ityukte idanim yatha parane khadamah chet sarvam ekam kinchidapi na shishyate marichikava karvepile kimapi na sheshayitva sampurnam khadati iti sakalyarthe prayogaha Trinam khadati ityasthaha na, satrinam khadati ityukte, ishadamsham api avihaya पूर्णतः खादति इत्यर्थः. अन्तिमम् अस्ति अन्त इति. अन्तवचनं नाम समाप्तिः. अग्निग्रन्थपर्यन्तम् अधीते साग्नि. अग्नि इति कस्यचित् एतत्तु वेदाध्ययने भवति, कस्यचित् ग्रन्थस्य भागः तत् समाप्तिपर्यन्तम् अध्ययनं करोति इत्यर्थः. साग्नि अधीते इत्युक्ते अग्नि इति कस्यचित् ग्रन्थभागस्य नाम तत् समाप्तिपर्यन्तम् अधीते इत्यर्थः. यथा उदाहरणार्थम् इदानीं सिद्धान्तकौमुद्यां यदि केवलं पञ्चसन्धिपर्यन्तम् अधीते तर्हि सपञ्चसन्धि अधीते, अथवा यदि कारकप्रकरणपर्यन्तम् अध्ययनं क्रियते सकारकम्, अथवा अन्ते अस्ति चेत् तत्र अन्ते वैदिकभागः अस्ति सवैदिकभागम् अधीते इत्युक्ते पूर्णां सिद्धान्तकौमुदीम् अधीतवान् इत्यर्थः. एवम् अन्तवचनमित्यस्य समाप्तिः इत्यर्थः. अव्ययम् विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावात्यया सम्प्रति शब्दप्रादुर्भावपश्चाद्यथानुपूर्वययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति एतेषु अर्थेषु विद्यमानं अव्ययम् समर्थेन सुबन्तेन समस्यते, सः अव्ययीभावसमासः इति. सूत्रस्य अर्थः अवगतः. इदानीम् एतेषां समासानां वाक्येषु प्रयोगः कथं कर्तव्यः इति किञ्चित् ज्ञातव्यम्. सामान्यतः किं भवति समासप्रकरणे केवलं समस्तपदानाम् अध्ययनं क्रियते, तस्य प्रयोगः कथम् इति कदाचित् न ज्ञायेत. पदं ज्ञात्वा प्रयोजनं नास्ति, कस्मिन् अर्थे कस्मिन् प्रसङ्गे तस्य प्रयोगः कर्तुं शक्यते इति ज्ञातव्यम्. तदा एव यदि अन्यत्र प्रयोगः कृतः तदा तस्य अवगमनं भवति, अथवा अस्माभिरेव प्रयोगः कर्तुं शक्यते. उदाहरणम् उपकृष्णम् इत्यस्ति. उपकृष्णं गौः चरति. कः अर्थः? कृष्णस्य समीपं गौः चरति. एवं वाक्यं रचयितुं सरलतमः उपायः आदौ विग्रहवाक्येन एकं वाक्यं रचनीयं. कृष्णस्य समीपं किमस्ति? कृष्णस्य समीपं नवनीतमस्ति. एकं वाक्यं विरचय्य तस्य विग्रहस्य स्थाने समस्तपदम् उपयुज्यते चेत् वाक्ये दोषः न भवति, अन्यथा वाक्येषु दोषाः भवन्ति. चेन्नैनगरे निर्मशकं कथं वा साध्यम्? निर्मशकम् इत्यस्य कः अर्थः? मशकानाम् अभावः सर्वत्र भवन्ति, अतः निर्मशकम् आदौ विग्रहवाक्येन वाक्यं विरचय्य ततः तस्य स्थाने समस्तपदस्य प्रयोगः कर्तव्यः. अतिकोपं मम नववर्षसङ्कल्पः, न्यू इयर् रेसोल्यूशन्. अतिकोपम् इत्यस्य कः विग्रहः अस्मिन् प्रसङ्गे? कोऽपि वदति?
कोपस्य
अत्ययः अतिकोपम् अथवा नाशः. अत्ययार्थे अव्ययीभावसमासः. असम्प्रति इत्यर्थः न भवति. असम्प्रति इति कदा भवति? कश्चित् कालः यत्र कोपः न युज्यते सः अतिकोपम् इत्युच्यते. यथा उदाहरणार्थं यज्ञः. यज्ञकाले यज्ञकालः यदा अस्ति तदा अतिकोपम् इत्युक्ते तस्मिन् काले कोपः न युज्यते इत्यर्थः वक्तुं शक्यते. अस्मिन् प्रसङ्गे किं भवति? कोपस्य अत्ययः टु कण्ट्रोल् एङ्गर् इत्यर्थः. अनुकनिष्ठं मधुराणि वितर. कः अर्थः अनुकनिष्ठम्? आनुपूर्व्यम्. कनिष्ठस्य आनुपूर्व्येण तथा एव किल क्रियते. ये अत्यन्तं कनिष्ठाः तेभ्यः आदौ दीयते. अनुकनिष्ठम् इत्युक्ते कनिष्ठेभ्यः आरभ्य ये अत्यन्तं कनिष्ठाः तेभ्यः आदौ दीयते, अनन्तरम् ईषज्येष्ठेभ्यः इति. अनुकनिष्ठं मधुराणि वितर सदूरवाणि यानचालनं विपत्तये. कः अर्थः, कः विग्रहः?
आदृश्यं वा?
दूरवाण्या सादृश्यं यानचालनं विपत्तये भवति वा? विपत्तिः अपायः इत्यर्थः.
दूरवाण्या सह यानचालनं विपत्तये,
समानकाले.
समानकाले युगपद् यौगपद्यं. दूरवाण्या सह इत्युक्ते समानकाले, दूरवाणी सम्भाषणेन समकाले यानचालनम् अपायाय भवति. दूरवाण्या युगपत् स दूरवाणी. एवं वाक्येषु प्रयोगेणैव समासानां किं शक्तिः ज्ञायते, सामर्थ्यं कथं भवति, समासस्य उपयोगेन कथं वाक्ये सौन्दर्यं वर्धते इति. तत्र अत्र एकं क्षणं, कानिचन केचन समस्तपदानि. हा, उपवासम् इति वस्तुतः उपवासः इति शब्दः सः अव्ययीसभावसमासः न. उपवासम् इत्यत्र वासस्य समीपम् इत्यर्थः नास्ति किल. उपवासः इत्युक्ते फास्टिङ्ग् इति. तत्र उप इति उपसर्गपूर्वकस्य वसधातोः घञ् प्रत्ययः, अतः तत्र अव्ययीभावसमासः नास्ति. एतत् स्मर्तव्यं, यत्र यत्र एवम् उप अति अनु इत्यादि श्रूयते तत्र सर्वत्र अव्ययीभावसमासः इति नास्ति. तत्पुरुषसमासे अपि प्रादयः यथा प्राचार्यः निष्कौशाम्भिः इत्यादिषु, तत्पुरुषसमासे अपि एतेषाम् उपसर्गाः इति ये कथ्यन्ते प्रादयः, तेषां श्रवणं भवति. बहुव्रीहिसमासे अपि एतेषां श्रवणं भवति. अतः अर्थम् आश्रित्य एव अयम् अव्ययीभावसमासः वा न वा इति निश्चेतव्यम्. उदाहरणं, कदाचित् उभयं भवितुम् अर्हति. यथा निर्जनशब्दः अस्ति, अत्र निर्जनमस्ति इत्युक्ते जनानाम् अभावः, अत्र जनानाम् अभावः अस्ति. निर्जनम् अत्र निर्जनम् अस्ति इति वक्तुं शक्यते. किन्तु अयं निर्जनः प्रदेशः इत्युक्ते तत्र जनानाम् अभावः इति न. अयं जनानाम् अभावः प्रदेशः इति उच्यते वा? न उच्यते. अतः सः प्रयोगः अशुद्धः. किं वक्तव्यं? तदा अयं निर्जनः प्रदेशः इत्युक्ते निर्गताः जनाः यस्मात् सः निर्जनः प्रदेशः. एवम् अर्थम् आश्रित्य एव समासः वक्तुं शक्यते, तत्र सन्देहः एव नास्ति. सन्धिः कदाचित् अर्थस्य ज्ञानं विना अपि कर्तुं शक्येत, यतोहि सन्धौ केवलं वर्णकार्यं. किन्तु अर्थं विना समासः कर्तुं न शक्यते. वयं कानिचन सामान्य उदाहरणानि पठामः, किन्तु सर्वत्रापि समासः इत्युक्ते वाक्यं भवेत्, वाक्ये तस्य कः अर्थः इति दृष्ट्वा एव समासः वक्तव्यः. इदानीम् एतत् मनसि निधाय अस्मिन् वर्गे पञ्चवाक्यानि लिखन्तु अव्ययीभावसमासम् उपयुज्य. वाक्यं विलिख्य वाक्ये प्रयोगं कृत्वा तस्य कः अर्थः इति, कः विग्रहः इति लेखनीयम्. भवद्भिः लिखितं युक्तं वा न वा इति भवद्भिः एव ज्ञातुं शक्यते. वाक्यद्वयमपि लिखन्तु. एकस्मिन् वाक्ये विग्रहवाक्यम् इत्युक्ते विग्रहेण, यथा कृष्णस्य समीपं गौः चरति. द्वितीयं वाक्यं भवति उपकृष्णं गौः चरति. यदि उभयं शुद्धमिति भासते तर्हि समासः साधुः. यदि विग्रहे तद्वाक्यं शुद्धमिति न भवति तर्हि सः समासः न युक्तः इति ज्ञायते. किन्तु लिखित्वा प्रेषयन्तु, मया दृश्यते. अव्ययीभावसमासम् उपयुज्य पञ्चवाक्यानि लेखनीयानि. अग्रे अन्यत् सूत्रमस्ति नदीभिश्च इति. अव्ययीभावसमासे वस्तुतः पञ्चदशसूत्राणि सन्ति. अव्ययीभावः इत्यधिकारः 215 तः आरभ्य 222 पर्यन्तम् अस्ति. तन्मध्ये यद्यदुच्यते तत्सर्वमपि अव्ययीभावसमासः एव. किन्तु लघुकौमुद्यां सूत्रद्वयमेव अधीयते. अव्ययं विभक्तिसमीप इति एकं सूत्रम्, इदं द्वितीयं सूत्रम्. अन्यानि सूत्राणि अत्र न अधीयन्ते. अग्रे कदाचित् सिद्धान्तकौमुद्यां द्रष्टुं शक्यन्ते. नदीभिश्च इति अग्रिमं सूत्रं. नदीभिः च इति पदद्वयमस्ति. नदीभिः इति तृतीया विभक्तौ बहुवचनान्तं, च इति अव्ययम्. पङ्ख्या इति पूर्वसूत्रान् अनुवर्तते. सङ्ख्यावंश्येन इति सूत्रमस्ति, तेन सङ्ख्या इति प्रथमान्तम् अनुवर्तते. सुप् सुपा सह अव्ययीभावः समासः इति सर्वमपि सामान्यतः अस्ति एव. कः अर्थः तर्हि? सङ्ख्यावः समस्यते इत्यर्थः. इदं सूत्रमस्ति येन अव्ययीभावसमासः विधीयते. नदीभिः सह सङ्ख्या समस्यते इति सूत्रार्थः. अत्र एकं वार्तिकमस्ति, समाहारे चायमिष्यते. अस्मिन् पुस्तके यत् कंसेषु अस्ति तत् वार्तिकं. समाहारे अयम् इष्यते. अयम् इत्युक्ते अयम् अव्ययीभावसमासः समाहारार्थे इष्यते. उदाहरणं पञ्चगङ्गं द्वियमुनम् इत्यस्ति. पञ्चगङ्गम् इत्युक्ते किम्? पञ्चानां गङ्गानां समाहारः इति विग्रहवाक्यं. समाहारः इत्यर्थः अस्ति समूहः इति. तत्र पञ्चन् गङ्गा इति शब्दयोः अव्ययं विभक्ति इति न. नदीभिश्च इत्यनेन अव्ययीभावसमासः. नदीभिश्च इति सूत्रेण अत्र अव्ययीभावसमासः. पञ्चन् जस् गङ्गा जस् इति विग्रहवाक्यम्. ततः सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लिकि पञ्चन् गङ्गा इति भवति. उपसर्जनं पूर्वम् इत्यनेन कस्य उपसर्जनसंज्ञा? सूत्रं किमस्ति? नदीभिश्च. सङ्ख्या नदीभिः समस्यते. अत्र प्रथमान्तं किम्? सङ्ख्या प्रथमान्तम्. अतः सङ्ख्या अस्ति, तदेव पूर्वत्र भवति. पञ्चन् गङ्गा. गङ्गा इति ह्रस्वः भवति, ह्रस्वो नपुंसके प्रातिपदिकस्य इति. पञ्चन् गङ्ग इत्यस्ति. नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपः इदं विशिष्टं सूत्रमस्ति. यत्र समासे पूर्वपदस्य अन्ते नकारः भवति तत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रमस्ति. प्रातिपदिकस्य अन्ते नकारः अस्ति चेत् तस्य लोपः भवति. अतः पञ्चन् इत्यत्र नकारस्य लोपः. पञ्चगङ्ग इत्यस्ति. सु औजस् इत्यनेन सुप्रत्ययः. अदन्तत्वात् नाव्ययीभावात् अतो अंसु पञ्चम्याः इत्यनेन अमादेशः. पञ्चगङ्ग अम् इत्यस्ति. अमिपूर्वः इत्यनेन पूर्वरूपे पञ्चगङ्गम् इति समस्तपदम्. कः अर्थः पञ्चगङ्गम् इत्यस्य? पञ्चानां गङ्गानां समाहारः. गङ्गायाः बह्व्यः बहूनि स्रोतांसि सन्ति. सप्त श्रोतांसि भवन्ति. यदा भगीरथः भगीरथस्य प्रयत्नेन गङ्गाभुवम् आगता, तत्र सप्त सप्तधा विभक्ता इति कथा श्रूयते. एवं गङ्गायाः बहुधा स्रोतांसि यत्र भवन्ति तत्र पञ्चानां गङ्गानां समाहारः पञ्चगङ्गम् इत्युच्यते. एवमेव द्वियमुनम् इत्यत्र द्वयोः यमुनयोः समाहारः, यमुनायाः स्रोतोद्वयस्य समाहारः इत्यर्थे द्वियमुनम् नदीभिश्च इति सूत्रेण नदी अयैः शब्दैः सह समाहारार्थे समासः भवति इति अव्ययीभावसमासस्य द्वितीयम् इदं सूत्रम्. अद्य एतावता भवतु. अस्माभिः किं कृतं भिन्नेषु अर्थेषु अव्ययीभावसमासस्य उदाहरणानि दृष्टानि. अव्ययीभावे चाकाले इत्यनेन सः इत्यस्य सादेशः दृष्टः. नदीभिश्च इत्यनेन नदीवाचकैः सह संख्यावाचकस्य अव्ययीभावसमासः अपि दृष्टः. अद्यतन अभ्यासार्थं प्रश्नाः: यथार्थाः के? तेषु अर्थेषु अव्ययीभावसमासस्य उदाहरणं यच्छत. प्रत्येकमर्थस्य एकैकम् उदाहरणम् इत्यस्य सूत्रस्य अर्थं सोदाहरणं विदुः इति प्रश्नद्वयम्. एतत् मुख्यं. भिन्नेषु अर्थेषु अव्ययीभावसमासम् उपयुज्य पञ्चवाक्यानि रचयत. सो यत्र अव्ययीभावसमासस्य उपयोगः वाक्ये. द्वितीयः प्रश्नः: अनुरामं सीता वनं गच्छति इति एकं वाक्यं, पत्या सह वनगमनं सीतायाः अनुगुणम् इति द्वितीयं वाक्यम्. उभयत्रापि अनु इत्यस्य समासः अस्ति. कस्मिन् अर्थे समासः इति किञ्चित् विचिन्त्य श्वः वयम् अव्ययीभावसमासे इतोपि एकः अंशः अवशिष्टः अस्ति. समासविधाने सूत्रद्वयमेव लघुसिद्धान्तकौमुद्यामस्ति. अव्ययीभावसमासे समासान्ताः कथं भवन्ति इति श्वः पश्यामः. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं.